जसमात् सर्वमिदं प्रपंच सहितं माया जगत् जायते जस्मिन् तिष्ठति चांति चांत समहे कल्पानु कल्पे मुनः जं धत्वा मुनयोः समाधि समितवोः शुद्धो वियत् सन्निभं तं वन्दे पुरुषोत्तममाख्यकमलं नित्यं विभुः निश्चलम् ॐ मंगलं भगवान् विष्णुः मंगलं गरुड़ध्वजः मंगलं पुंडरीकाख्यं मंगलं पुरुषोत्तमः माधवो माधवो वाक्यं माधवो माधवो हरिः स्मरन्ति साधवा नित्यं सर्वकार्येषु माधवम् ॐ श्रीं परमात्मने नमः जस्य स्मरणमात्रेण जन्म संसारवन्दनात् विमोच्यते नमस्तस्मै विष्णवे प्रभविष्णवे नमः समस्तभूतानां मादिभूताय भूप्रते अनेकरूपरूपाय विष्णवे प्रभविष्णवे श्रीवैशम्पायनुवाच श्रुत्वा धर्मानि शेषेण पावनानि च सर्वशः युधिष्ठिरः सान्तनेवं पुनरेवाम्भवास्यत श्रीयुधिष्ठिरोवाच किमेकं दैवतं लोके किं व्यापेकं परायणम् स्तुवं तंकः कर्मचं तु प्राप्नयु मानवः शुभम् को धर्मः सर्वधर्माणां भवतः परमो मतः किं जपञ्चुते जन्तु जन्म संसारवन्दनात् श्रीभीष्मो उवाच जगत्प्रभुदेवदेवं मनं तं पुरुषोत्तमम् स्तवनामं सहस्रेणं पुरुषः सततो स्थितः त्वमेवं चार्यया नित्यं भगत्यां पुरुषमव्ययम् धियायेनोस्तवमानस्य जयमानस्त्वमेव च अनादिनिधनं विष्णु सर्वलोको महेश्वरम् लोकाध्यक्षोऽस्तु वन्नित्यं सर्वदुःखातिगो भवे ब्रह्मण्यो सर्वधर्मज्ञं लोकानां कीर्तिवर्धनं लोकनाथ महतभूतं सर्वभूतो भवद्भवम् एष मे सर्वधर्माणां धर्मोऽधिकोत्तमः मतः यदभगत्यां पुण्डरीकाख्यं स्तवरैचो नरः सदा परमञ्जो महत्तेजो परमञ्जो महत्तपः परमञ्जो महत् ब्रह्म परमञ्जः परायणम् पवित्राणां पवित्रं च मङ्गलानां च मङ्गलम् दैवतं देवतानां च भूतानां च व्ययोः पिता यतः सर्वाणि भूतानि भवन्त्यादि युगागमे यस्मिन्निश्चं प्रलयं यान्ति पुनरेव युगक्षये तस्य लोकं प्रधानस्य जगन्नाथस्य भूपते विष्णो नाम सहस्रामे शृणु पापं भयापहम् जानी नामानि गौणानि विख्यातानि महात्मनः ऋषिभिः परिगीतानि तानि वक्ष्यामि भूतये। ॐ अस्य श्री विष्णुदिव्यं सहस्रनामस्तोत्रमन्त्रस्य श्रीभगवान् वेदव्यासऋषिः अनुष्टप् छन्दः श्रीसर्वशक्तिमत्पुरुषोत्तमश्रीजगन्नाथदेवस्य चरणारविन्दप्रीतये कीर्तने विनियोगः। शान्ताकारं भुजकशयनं पद्मनाभं सुरेशं विश्वाधारं गगनसदृशं मेघं वर्णं शोभांगं लक्ष्मीकांतं कमलनयनं योगविद्यानगम्यं वन्देर्विष्णोर्भवभयहरं सर्वलोकैकनाथं शशङ्खचक्रं सकिरीटकुण्डलं सवीतवस्त्रं सरसीह्रक्षणं सहारवक्षं स्थलकौस्तुवाश्रियं नमामि विष्णुं शिरसां चतुर्भुजम्। ॐ विश्वं विष्णु वषष्कारो भूतभव्यो भवत्प्रभु भूतकृतभूतभवो भावो भूतात्मा भूतभावनः भूतात्मां परमात्मां च मुक्तानां परमाङ्गतिः अव्ययः पुरुषो साक्षी क्षत्रज्ञो क्षरहेव च योगो योगं विदं नेता प्रधानं पुरुषेश्वरः नारसिंहः वपुः श्रीमान् केशवः पुरुषोत्तमः सर्वः सर्वः शिवस्ताणु भूताधिनिधरं वयः संभवो भावनुर्भरता प्रभवः प्रभुरीश्वरः स्वयंभू शम्भुरादित्य पुष्पराक्षो महास्वनः अनादिनिधनो धाता विधाता धातुरुत्तमः अप्रमेयो हृषीकेशः पद्मनाभोमरप्रभुः विश्वकर्मा मनस्त्वष्ट्वा स्थविष्ठः स्थविरोद्ध्रुवः अग्राह्यः श्वाश्वतः कृष्ण लोहिताख्यः प्रतर्दनः प्रभूतस्त्रीकुकद्धामं पवित्रं मङ्गलं परम् ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः हिरण्यो गर्भभूगर्भो माधवो मधुसूदनः ईश्वरं विक्रमी ध्वन्नी मेधावी विक्रमः क्रमः अनुर्तामं दुराधरसः कृतज्ञः कृतिरात्मवान् सुरेशः शरणं शरमं विश्वरेतः प्रजाभवः अहः शम्भोश्चरो व्याळः प्रत्ययः सर्वदर्शनः अजः सर्वेश्वरः सिद्धः सिद्धे सर्वादुरच्युतः वृषाकापीरमय्यात्मा सर्वयोगः विनिःसृतः वसुर्वासुर्मनः सत्यः समात्मा समतः समः अमोघः पुण्डरीर्काक्ष वृषकर्मा वृषाकृतिः रुद्रबाहो शिरा बभ्रो विश्वयोनिः शुचिस्रवाः अमृतः श्वासतः स्ताणु वरारोहो महातपाः सर्वगः सर्वविदिभानु विश्वक्सेनो जनार्दनः वेदो वेदो वेदं व्यङ्गो वेदाङ्गो वेदवित्कविः लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षो कृताकृतः चतुरात्मा चतुर्वीहो चतुर्द्रष्टः चतुर्भुजः भ्राजिष्टुं भोजनं भुक्ता सहिष्टुं जगदादिजः अनोघः विजयो जेता विश्वः योनिः पुनर्वसुः उपेन्द्रः वामनः पार्श्वो रमोघः सुचिरार्जितः अतीन्द्रः संग्रहः सरङ्गो धृतात्मा नियमो यमः वेद्यो वैद्यो सदा योगी वीरः माधवो मधुः अतीन्द्रियो महामायो महोत्साहो महाबलः महाबुद्धिः महावीर्यो महाशक्तिः महाद्युतिः।